अथ षष्ठ स्कंध अथ सप्तमोध्याय कस्य हेतु परित्यक्ता आचार्येणात्मन सुरा एतद्वाचक्ष्व भगवन् शिष्याणाम् अक्रमम् गुरौ। शीर्षुक उवाच इन्द्रस्त्रिभुवन ऐश्वर्य मदोल्लङ्घित सत्पथः मरुद्भिः वसुभिरुद्र आदित्ये विभुर्निप विषदेवैश्च साध्यैश्च न सत्याभवम् परिश्रुतः सिद्ध चारण गन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः विद्याधराप्सरोभिश्च किन्नरै पतगोरवे निषद्यमाणो भगवान् स्तूयमानश्च भारत उपगीयमानो ललितम् आस्थानाध्यासनाश्रितः पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा युक्तश्चान्यैः पारमेष्ठैश्चामरव्यजनादि विराजमानः पौलम्याम् महार्धासनयाभृशम् स यदा परमाचार्यम् देवानामात्मनश्च हर्णाभ्यनन्दत सम्प्राप्तम् प्रतुत्थानासनादिभिः वाचस्पतिम् मुनिवरम् सुरासुर नमस्कृतम् नोच्चालासनादिन्द्र पश्यन्नपि सभागतम् ततो निर्गत्य सहसा कविराङ्गिरसः प्रभु आययौ स्वगृहम् तूष्णीम् विद्वान् श्रीमद्विक्रियाम् तर्हि वा प्रतिबुद्धेन्द्रो गुरुहेलनमात्मनः गर्ह्यामास सदसि स्वयमात्मानमात्मना अहो बत्ममासाधु कृतम् वैदभ्रबुद्धिना जन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः को गृध्येत् पण्डितो लक्ष्मीम् त्रिविष्टपतेरपि जयाहमासुरम् भावम् नीतोद्य विविधेश्वरः ये पारमेष्ठम् भीषणम् अधितिष्ठन् कञ्चन प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मम् तेन परम् विदुः तेषाम् कुपथदृष्टीणाम् पततां तमसि यथ ये श्रद्धद्भिर्वचस्तेव मजन्त्यस्म प्लवा इव अथाह ममराचार्यमगाद्भीषणम् द्विजम् प्रसादयिष्य निषठ शिक्षणात्तच्चरणम् स्पृशम् एवम् चिन्तयतस्तस्य मघोनो भगवान् गृहात् बृहस्पतिर्गतो दृष्टम् गतिमध्यात्मया गुरोर्नाधिगतः संज्ञाम् परीक्षन् भगवान् स्वराध्यायन् धियासुरर्युक्तः शर्मणा लभतात्मनः तच्छ्रुत्वैवासुरः सर्व आश्रितौशनसम्मतम् देवान् प्रतिद्यमम् चक्रुर्दुर्मदा आततायिनः तै निःसृष्टेष्वभिस्तीक्ष्णे निर्भिन्नाङ्गोरुबाहवः ब्रह्माणम् शरणम् जग्मुः सहेन्द्रानत्कन्धरः तांस्तथाभ्यधितान् वीक्ष्य भगवानात्मगुरज कृपया परया देव उवाच परिशान्त्वयन् ब्रह्मोवाच अहोगत सुरश्रेष्ठा हि भद्रम् वः कृतम् महद्ब्रह्मिष्ठम् ब्राह्मणम् दान्तम् ऐश्वर्यान्नाभ्यनन्दत तस्यायमनयस्यासीत् परेभ्यो वः पराभव प्रक्षीणेभ्यो स्वैरिभ्यो समृद्धानाम् च यत्सुरः भगवन् द्विषतः पश्य प्रक्षीणान् गुर्वति क्रमात् सम्प्रत्युपचितान् भूय काव्यमाराध्य भक्तितः आददीरन्निलयनममापि भृगुदेवतः त्रिविष्टपम् किम् गणयन्तभेद्य मन्त्रा भृगूणामनुशिक्षिताथ न विप्रगोविन्दगवीश्वराणाम् भवन्ति भद्राणि नरेश्वराणाम् तद्विश्वरूपम् भजता सुविप्रम् तपस्विनम् त्वाष्टमथात्मवन्तम् सभाजितोऽर्थान् सविधास्यते वो यदि क्षमिष्यद्मुतास्य कर्म। श्रीशुक उवाच त एवमुदिता राजन् ब्रह्मणा विगतज्वरः ऋषिम् त्वाष्टमुपव्रज्य परिष्वज्येदमब्रुवन् देवा ऊचुः वयम् ते तिथयः प्राप्ता आश्रमम् भद्रमस्तु ते कामः सम्पाद्यताम् तात पितॄणाम् समयोचितः पुत्राणाम् हि परो धर्म पितृशुशूषणम् सताम् अपि पुत्रवताम् ब्रह्मन् किमुत ब्रह्मचारिणाम् आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापते भ्राता मरुत्पतिर्मूर्तिर्माता साक्षात्क्षितेस्तनुः दयाया भगिनी मूर्तिः धर्मस्यात्मा तिथिः स्वयम्। अग्निरभ्यागतो मूर्ति सर्वभूतानि चात्मनः तस्मात् पितृणाम् आर्तानाम् आर्तिम् परपरा भवम् तपसापनयम् स्तात सन्देशम् कर्तुम् अर्हसि वृणीमहे त्वपाध्यायम् ब्रह्मिष्ठम् ब्राह्मणम् गुरुम् यथाञ्जसा विजयस्याम सपत्नांस्तव तेजसा न गर्हयन्ति हर्तेषु जविष्ठाङ्घ्यङ्घ्रिवादनम् छन्देभ्योऽन्यत्र न ब्रह्मन् वयो ज्येष्ठस्य कारणम् ऋषिरुवाच अभ्यर्थितः सुरगणैः पौरोहित्ये महातपः स विश्वरूपस्थानः प्रसन्नः सुलक्षणया गिरा विश्वरूपवाच विगर्हितम् धर्मशील ब्रह्मवर्च उपव्ययम् कथम् नु मद्विधो नाथ लोकेशैरभियाचितम् प्रत्याख्यासिष्य स एव स्वार्थ उच्यते अकिञ्चनानाम् हि धनम् सुलक्षणम् तेनेह निर्वर्तित साधु सत्क्रियः कथम् विगर्ह्यम् नु करोम्यधीश्वरः पौरोध संहृष्यति येन दुर्मतिः तथापि न प्रतिब्रूयाम् गुरुभिः प्रार्थितम् कियद्भवताम् प्रार्थितम् सर्वम् प्राणैरर्थैश्च साधे श्रीशुक उवाच तेभ्य एवम् प्रतिश्रुत्य विश्वरूपो महातपः पौरोहित्यम् वृतश्चक्रे परमेण समाधिनाम् सुरद्युषाम् श्रियम् गुप्ताम् औषमस्यापि विद्यया आच्छिद्यदान् महेन्द्राय वैष्णव्या विद्यया विभुः यया गुप्तः सहस्राक्षो जिज्ञेशुरचनुर्विभु ताम् प्राह स महेन्द्राय विश्वरूपोदारधि इति श्रीमद्भागवते महापुराणे परमहंसम् संहितम् षष्ठस्कन्धे सप्तमोऽध्यायः